नमस्ते। वाक्यकारं रविचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। गतपाठे सर्वनाम शब्दानां विषये उक्तं। स्त्रीलिङ्गरूपाणि केषाञ्चन शब्दानां दृष्टानि। एतानि रूपाणि गतपाठे दृष्टानि। नपुंसकलिङ्गशब्दस्य अपि प्रक्रिया समाना भवति, यथा नपुंसकलिङ्ग सर्वशब्दस्य क्रियते। सर्वः, सर्वं, सर्वे, सर्वाणि, सर्वं, सर्वे, सर्वाणि, सर्वेण, सर्वाभ्यां, सर्वैः इत्येवं तत्र नपुंसकलिङ्ग सर्वशब्दस्य क्रियते। तद्वदेव अत्रापि नपुंसकलिङ्ग सर्वनामशब्दश्चेदपि प्रक्रिया तद्वदेव भवति। अत्र प्रत्ययः अत्र न लिखितः, किन्तु प्रत्यये नपुंसकलिङ्गे द्विवचने, प्रथमाविभक्तेः द्विवचने, बहुवचने च एवं द्वितीयाविभक्तेः द्विवचने, बहुवचने च प्रत्ययस्य परिवर्तनं वर्तते। तत्र द्विवचने इ दीर्घ ईकारः, इ इति प्रत्ययः, बहुवचने ह्रस्व ईकारः, इ इति प्रत्ययः, अतः सर्वं, सर्वे, सर्वाणि इति भवति। ते एव प्रत्ययाः अत्रापि, यत् शब्दः तत् शब्दः यत्किञ्चित् भवतु, अत्रापि प्रत्ययाः ते एव भवन्ति। पुनः यथा अस्माभिः दृष्टम् अकारान्त सर्वनाम पुल्लिङ्गशब्देषु यथा दृष्टं, तत्र यद्यपि तद् एतद् इत्यादयः हलन्ताः शब्दाः, तथापि अकारान्तः भवन्ति। द्विकम् अकारान्तः, द्विकोसस्त्यदादीनाम् अह, अतः पुनः किं शब्दः, दट् इस् आदेश, किमः कः इति आदेशः अस्ति, अतः ते सर्वेपि अकारान्तः भवन्ति। अकारान्तः भवन्ति इति कारणात् सर्वशब्दवदेव प्रक्रिया प्रचलति। अतः तद् शब्दः ओन्ली इन् एकवचन, एकवचने तद् इत्येव अवशिष्यते। सो दट् तदादीनाम इस् नाट् अप्लिकेबल् इन् एकवचन। सो इफ् इट्स् तद् देन् तद् रिमैन्स्, इफ् एतद् देन् एतद् रिमैन्स्, इफ् इट्स् किं देन् किं रिमैन्स्। सो एकवचनम् इस् तद्, द्विवचनं तद्, देन् ते तानि, तद् ते तानि, देन् तेन ताभ्यां तैः एक्सेट्रा, दे आर् लैक् इन् पुल्लिङ्ग, तेन